आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। उपराष्ट्रपतिः सीपी राधाकृष्णन् वर्यः अद्य छत्तीसगढ़ं प्रति एष्यति। इयं हि यात्रा पदग्रहणानन्तरं राज्यस्य प्रथमा यात्रा वर्तते। यात्रावधौ सः नवरायपुर राजनन्दगांव नगरयोः सार्वजनिक कार्यक्रमाणां श्रृंखलायां भागं ग्रहीष्यति, यस्मिन् छत्तीसगढ़ निर्माणस्य वार्षिकोत्सवस्य प्रतीकरूपेण रजत महोत्सवः अपि अन्तर्भवति। प्रधानमन्त्री नरेन्द्रमोदी गतदशके QS एशिया विश्वविद्यालयस्य श्रेणिषु भारतीय विश्वविद्यालयानां संख्यायां वृद्धेः प्रशंसाम् अकरोत्। ह्यः एकस्मिन् जनसञ्चारपटले श्रीमोदी अब्रवीत् यत् अनुसन्धान नवान्वेषणयोः केन्द्रीकरणेन यूनां कृते गुणवत्तायुक्तां शिक्षां सुनिश्चेतुं सर्वकारः प्रतिबद्धः अस्ति इति। पंच भारतीय प्रौद्योगिकी संस्थाः IIT, भारतीय विज्ञान संस्थाः IISC, बेंगलुरु दिल्ली विश्वविद्यालयः च QS एशिया विश्वविद्यालय श्रेणिषु एशियायाः शीर्ष शत संस्थासु स्थानम् अवाप्नोत्। बिहार विधानसभा निर्वाचनस्य प्रथम चरणाय प्रचाराभियानं ह्यः स्थगितो जातः। अस्मिन् चरणे गुरुवासरे तावत् 18 जनपदानाम् 21,00,000 विधानसभासनेषु मतदानं भविष्यति। अन्तिमे दिने NDA तथा महागठबन्धनस्य घटकदलानां शीर्षनेतृभिः राज्ये मतदातॄणाम् आकर्षणार्थं सम्पूर्णप्रयासः कृतः। अत्रान्तरे जनतादलस्य वरिष्ठनेतुः तथा केन्द्रीयमन्त्रिणः राजीवरञ्जनः उतललनसिंहः इत्येतं विरुध्य मोकामाक्षेत्रे आदर्श आचारसंहितायाः कथित उल्लङ्घनस्य आरोपे एका प्राथमिकी पञ्जीकृता अस्ति। प्राप्तवृत्तानुसारं ललनसिंहस्य एकं चलचित्रदृश्यं सामाजिकमाध्यमेषु प्रसारितं भवति, यस्मिन् सः विपक्षमतदातॄन् तेषां मताधिकारस्य उपयोगेन निवारयति इति। जम्मूकश्मीरस्य उपराज्यपालः मनोजसिंहा गुरुनानकजयन्त्याः प्रकाशपर्वणः शुभावसरे जनान् अभिनन्दितवान्। आकाशवाण्याः वार्ताहरः प्रतिवेदयति यत् उपराज्यपालः स्वसन्देशे सर्वेभ्यः शुभकामनाः अयच्छत्। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः ह्यः गुरुनानकजयन्त्याः पूर्वसन्ध्यायां समेभ्यः देशवासिभ्यः शुभकामनां प्रायच्छत्। स्वकीय सन्देशे राष्ट्रपतिः मुर्मुः अवदत् यत् अयम् अवसरः सर्वान् गुरुनानकदेवस्य आदर्शानां मूल्यानां च आचाराय प्रेरयति, सहैव श्रेष्ठसमाजस्य निर्माणदिशि मार्गदर्शनञ्च करोति। सा अग्रे अवोचत् यत् गुरुनानकस्य सन्देशः शिक्षयति यत् सत्य न्याय करुणाधारितं जीवनमेव सफलतायाः वास्तविक मानदण्डम् अस्ति। सः सर्वानपि सत्यनिष्ठया जीवितुं प्रेरयति। राष्ट्रपतिः सर्वान् गुरुनानकदेवस्य आदर्शान् स्वकीये जीवने आत्मसात् कर्तुं सहैव शान्तिपूर्णस्य समृद्धराष्ट्रस्य च निर्माणाय तस्य मार्गानुसरणस्य आग्रहम् अकरोत्। भारतीय ऋतुविज्ञानविभागेन अद्य तमिलनाडु पुदुचेरी करैकल इत्येतेषु प्रदेशेषु केषुचित् स्थानेषु प्रचण्डवृष्टिः भविष्यति इति पूर्वानुमानं प्रकटितम्। विभागेन उक्तं यत् आन्ध्रप्रदेशस्य कर्णाटकस्य तेलांगनाराज्यस्य रायलसीमाप्रदेशस्य च केषुचित् भागेषु आगामिषु कतिपयदिवसेषु लघु मध्यमवृष्टिः भविष्यति इति। राज्यमन्त्री डॉ. जितेन्द्रसिंहः अद्य नवदिल्ल्यां चतुर्थराष्ट्रव्यापि अंकीय जीवन प्रमाणपत्र अभियानम् आरप्स्यति। मन्त्रालयेन उक्तं यत् मासपर्यन्तं सञ्चालितं अभियानमिदं देशे 5,00,000 शिविरेषु आयोज्यते। अभियानस्य उद्देश्यं प्रौद्योगिकीम् उपयुज्य निवृत्तिवेतनधारिणाम् अंकीय सशक्तीकरणस्य प्रोत्साहनं वर्तते। इति वार्ताः।